अथ गरुडद्वादशनामस्तोत्रम् सुपर्णम् वैनतेयम् च नागारिम् नागभूषणम् विशान्तकम् शशाङ्कम् च आदित्यम् विश्वतोमुखम् गरुत्मन्तम् खगपतिम् तार्क्ष्यम् कश्यपनन्दनम् द्वादशैतानि नामानि गरुडस्य महात्मनः यः पठेत् प्रातरुत्थाय सर्वत्र विजयी भवेत् विषम् नाक्रमते तस्य न तम् हिंसति पन्नगः सङ्ग्रामे व्यवहारे च कार्यसिद्धिम् च मानवः बन्धनान्मुक्तिमाप्नोति यात्रायाम् सिद्धिमाप्नुयात् कार्यसिद्धिम् कुरुष्वार्यविहगाय नमोऽस्तु ते इति गरुडद्वादशनामस्तोत्रम्।